एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा। प्रधानमन्त्री सुशीला कार्की निगदति आगामी निर्वाचनम् सफलतापूर्वकम् सम्पादयितुम् सर्वकारेण श्रमपूर्वकम् कार्यम् विधीयमानमस्ति। बारखरी मीडिया इति संस्थया ह्य काष्ठमण्डपे आयोजितायाः एतद् विक्रम वर्षीयायाः बारखरी कथा लेखन प्रतियोगितायाः विजयी लेखकेभ्यः पुरस्कारम् प्रायच्छन्ति प्रधानमन्त्री कार्की। सर्वकारस्य ध्यानम् निर्वाचने केन्द्रितमस्ति इति प्रावोचत् प्रधानमन्त्री कार्की। देशे अस्थिरता अराजकता च न भवेताम् इत्यत्र आत्मनः सावधानता अस्तीति अवोचत्। अर्थमन्त्री डा रामेश्वर खनालः भाषते आगामिनः फाल्गुन मासस्य एकविंशे दिवसे आयोक्ष्यमाणं प्रतिनिधिसभा सदस्यानां निर्वाचनं निर्धारित समये एव सम्पत्स्यते। सिराहा जनपदस्य लहानवर्तिनः रामकुमार शारदा उमा प्रसाद मुरारका प्रादेशिक चिकित्सालयस्य भूमेः हस्तान्तरण कार्यक्रमे सम्मान प्रदान कार्यक्रमे च अर्थमन्त्री खनालः सर्वकारेण निर्वाचनस्य वातावरणं निर्मीयमाणम् अस्तीत्यतः कस्मिन्नपि दुष्प्रचारे भ्रमे वा न निपतितुं नागरिकान् अनुरुणत्। अर्थमन्त्री खनालः निर्वाचनस्य अनन्तरं देशस्य अर्थतन्त्रमपि गतिशीलं भविष्यति इति विश्वासम् अभिव्यनक्। त्रिभुवन विश्वविद्यालयस्य एकपञ्चाशत्तमे दीक्षान्त समारोहे त्रिशताधिक षोडश सहस्र विद्यार्थिनः दीक्षिताः सन्ति। ह्य काष्ठमण्डपस्य दशरथ रंगशालायां सम्पन्ने एकपञ्चाशत्तमे दीक्षान्त समारोहे त्रिभुवन विश्वविद्यालये गतवर्षे विभिन्न स्तरेष् उत्तीर्णेष् प्राय नवसहस्रेष् छात्रेष् मध्ये षोडश सहस्राधिक छात्राः दीक्षिताः सन्ति। नवति सहस्रेषु छात्रेषु मध्ये षोडश सहस्राधिक छात्राः दीक्षिताः सन्ति। दीक्षान्त समारोहं सम्बोधयन्ती प्रधानमन्त्री त्रिभुवन विश्वविद्यालयस्य कुलपतेश्च सुशीला कार्की ज्ञानं सेवया सह कौशलं सदाचारेण सह सफलतां समाजस्य कृते योगदानेन सह च योजयितुं दीक्षितान् छात्रान् आह्वयत्। प्रधानमन्त्री कार्की चतुर्लक्ष्याधिक छात्रै अध्ययनरते विश्वविद्यालये प्राध्यापकानां विद्यार्थिनां च मध्ये सन्तोलनं विधाय गुणस्तरीया शिक्षा दातव्या अस्तीत्यत्र बलं प्रादात्। समारोहे प्रमुखातिथिरूपेण पञ्चदशोत्तर द्विसहस्रतमे ख्रैस्ताब्दे भौतिकशास्त्रे नोबेल पुरस्कार विजेता जापान देशस्य प्राध्यापक डाक्टर ताकाहाकी काजिता समागत आसीत्। समारोहं सम्बोधयन् प्रमुखातिथि डाक्टर काजिता आत्मना विद्यावारिध्युपाधि प्राप्तेरनन्तरमपि नैरन्तर्येण अनुसन्धानं विहितम् इत्यतः नोबेल पुरस्कार प्राप्तये योग्यता समागतेति अज्ञापयत्। समारोहे आत्मानुभवं श्रावयन् प्रमुखातिथि डाक्टर काजिता एकस्योपाधेः प्राप्तेरनन्तरम् अध्ययनम् अनुसन्धानं च समाप्तम् इति न मन्तव्यम् अपि तु पुनरपि नूतनम् अनुसन्धानं कर्तव्यमेवेति विचार्य सदा सर्वदा अध्ययनानुसन्धाने कृते सत्येव योग्यता वर्धते इति दीक्षित छात्रेभ्यः नैरन्तरेण अध्ययनाय प्रेरणामदात्। दीक्षान्त समारोहे शिक्षा विज्ञान प्रविधि मन्त्री विश्वविद्यालयस्य सहकुलपतिश्च महावीर पुनः आत्मनः ज्ञानं कौशलञ्च समाज परिवर्तनस्य क्षेत्रे प्रयुक्तव्यं भवतीति धारणाम् अभिव्यनक्। पूर्व गृहमन्त्री रमेश लेखकः निगदति भाद्रमासस्य त्रयोविंश चतुर्विंशयोः दिवसयोः सम्भूतायाः घटनायाः विषये अनुसन्धातुं निर्मिताय अनुसन्धानायोगाय संघटनस्य प्रदानाय गमिष्यति। सा नेपावर्तिनी दल केन्द्रीय कार्यालये सञ्चाल्यमानात् नेपाली कांग्रेस केन्द्रीय कार्य समितेः उपवेशात् बहिर्गमनस्य क्रमे पूर्व गृहमन्त्री लेखकः अस्यैव पौषमासस्य चतुर्दशी दिवसे सोमवासरे आयोगे संघटनाय गमिष्यामीति अगदत्। आयोगेन पूर्व गृहमन्त्रिणे लेखकाय अद्यतन दिवसाय पत्रं प्रेषितम् आसीत्। नेकपा एमाले दलस्य अध्यक्षः केपी शर्मा ओली निर्वाचनस्य वातावरणस्य निर्माणाय बलं ददाति। सम्प्रत्येव सम्पन्ने दलस्य एकादशतमे महाधिवेशने परिचालितेभ्यः स्वयंसेवकेभ्यः प्रमाणपत्रं प्रदातुं ह्यः आयोजिते कार्यक्रमे अध्यक्षः ओली निर्वाचनस्य कृते शान्तिपूर्णं वातावरणम् आवश्यकमस्तीति चर्चयन् शान्तिपूर्णे वातावरणे एव स्वदलं निर्वाचने सहभागी भविष्यति इति अगदत्। त्रासस्य असुरक्षायाश्च मध्ये निर्वाचनं न सम्भवति इति चर्चयन् अध्यक्षः ओली जेन्जी यूनां समूहस्य आन्दोलनस्य क्रमे अपहृतानां शस्त्रास्त्राणां कारणेन कारागारात् पलायितेभ्य जनेभ्यश्च सुरक्षायां संकटः वर्धमानोऽस्ति इति चर्चयन् शान्तिपूर्णस्य वातावरणस्य निर्माणस्य दायित्वं सर्वकारस्य अस्ति इति प्रावोचत्। अस्माकं संयुक्ताभियानं ज्येष्ठ नागरिकान् प्रति श्रद्धा सम्मानश्चेति आदर्शवाक्येन सह अद्य विभिन्नान् कार्यक्रमान् आयोज्य ज्येष्ठ नागरिक दिवसः समायोज्यमानोऽस्ति। एकपञ्चाशदुत्तर द्विसहस्रतम विक्रमवर्षस्य पौषमासस्य एकादश दिवसे सुरक्षाभरण प्रदानस्य प्रथम दिवसं स्मृत्वा नेपाले प्रतिवर्ष दिवसोऽयं समायोज्यमानो वर्तते। नेपालस्य संविधाने ज्येष्ठ नागरिक सम्बद्धाधिनियमेन ज्येष्ठ नागरिकेभ्य विशेष संरक्षणस्य सामाजिक सुरक्षायाश्च अधिकाराः सुनिश्चिताः वर्तन्ते। अवसरेऽस्मिन् शुभकामना सन्देशं प्रददत् राष्ट्रपतिः रामचन्द्र पौडेलः निगदति ज्ञानशिल्पानुभवैः परिपूर्णाः ज्येष्ठ नागरिकाः अस्माकं कृते प्रेरणायाः पुञ्जः समाजविकासस्य मार्गदर्शकाश्च वर्तन्ते। शुभकामना सन्देशं प्रददत् उपराष्ट्रपतिः रामसहाय प्रसाद यादवः ज्येष्ठ नागरिकाः भारतत्वेन न अपितु बोधनुभवयोः श्रोतसरूपेण स्वीकर्तव्यः इति उक्तवान् वर्तते। नेपाली कांग्रेसदलेन राष्ट्रियसभायाः अधिवेशनस्य आह्वानाय याचना विहिता अस्ति। कांग्रेसदलस्य राष्ट्रियसभा संसदीय दलस्य ह्यस्तनोपवेशेन निर्णयोऽयं विहितोऽस्ति इति दलस्य प्रमुख सचेतक पदीयः कृष्णबहादुर रोकाया असूचयत्। संसदीय दलस्य नेतुः कृष्णप्रसाद सिटौला इत्यस्य अध्यक्षतायां सम्पन्नेन उपवेशेन प्रतिनिधिसभायाः अभावे शीघ्रमेव राष्ट्रियसभायाः उपवेशस्य आह्वानाय राष्ट्रियसभायाः अध्यक्षस्य समक्ष याचनां विधातुं निर्णीतमस्ति इति समाचारः।